सहनावतु सहनौ भुनक्तु सहवीर्यं करवावहै तेजस्विनावधीतमस्तु मा विद्विषावहै। ॐ शान्ति शान्ति शान्तिः। हरिः ओम्। श्रीगुरुभ्यो नमः। हरिः ओम्।
धन्यवादः महोदय। सर्वेभ्यो नमः। सर्वेषां स्वागतम् अस्मिन् वर्गे। अस्माकं प्रवर्तमानः विषयः अस्ति तत्र कर्मणि भावे प्रयोगः, किन्तु लोट् लकारे। पूर्वं वयं कर्मणि भावे प्रयोगः अस्माभिः दृष्टः, किन्तु तदासीत् लट् लकारे। इदानीं लोट् लकारः इति नूतन रूपं, तस्मात् प्राक् तत्र एकस्य अंशस्य पुनस्मरणं यदि भवति चेत् अत्र सुलभः भवति इति कृत्वा, तत्र आत्मनेपदी धातूनां तत्र लोट् लकाररूपं कथम् इति किञ्चित् स्मरामः। तत्र भवतु भूधातुः, तत्र रघुवीरानन्दं स्वामी तत्र भूधातोः लोट् लकार परस्मैपदी अस्ति प्रथमतया, तदनन्तरं तत्र आत्मनेपदी धातून् पश्यामः। किन्तु तत्र किमस्ति भूधातुः लोट् लकारः? भवतु
भवतु भवतां भवतात्
भवन्तु
भवतु
भवतु भवतां भवन्तु
भवन्तु
भव
महोदय झटिति न।
अस्तु 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 हा अस्तु महोदय। तत्र भव भव तत्र भवतु भवतां भवन्तु भव भवतं भवत भवानि भवाव भवाम
भवानि भवाव भवाम
भवाम इति हा तावदेव। अस्तु इदानीं तत्र किन्तु अत्र तु किम् अपेक्षितम् इत्युक्ते तत्र आत्मनेपदी धातूनां लोट् लकारः अपेक्षितम् अस्ति। तत्र आत्मनेपदी धातूनां तत्र रघुपतिमहोदय तत्र वर्धते इति तत्र तस्य लोट् लकाररूपाणि वदति वा महोदय, अथवा सः ते साधारण तत्र आत्मनेपदी धातु
तत्र तां खलु तत्र
सः ते इति स्वीकरोतु
वर्धते खलु वर्धते
अस्तु वर्धते
वर्धते वर्धते वर्धन्ते तत्र वर्धतां वर्धतां
वर्धेतां
वर्धेतां वर्धन्ताम्
वर्धन्तां वर्धन्तां वर्धस्व
वर्धस्व वर्धतां
वर्धेतां
वर्धेतां वर्धध्वं
वर्धध्वं
वर्धै वर्धै वर्धावहि वर्धामहे
वर्धै वर्धावहि वर्धामहे इति हा समीचीनं हा उत्तमम्। अस्तु शोभा भगिनि तत्र सहते इति तस्य लोट् लकाररूपम् एकवारं वदतु भगिनि।
आं महोदय तत्र सहते अस्तु सहतां सहेतां सहन्तां सहस्व सहेतां सहध्वं सहे सहावहै सहामहै
हा इति समीचीनं हा अस्तु। नरेश् महोदय तत्र पुनः तत्र वर्धते तत्र किं वर्धते लोकते हा अस्तु लोकते लोकते इति करोतु महोदय लोट्लकारः लोकते
लोकते लोकतां लोकेतां लोकन्तां लोकस्व लोकेथां लोकध्वं लोकै लोकावहै लोकामहै
हा इति अस्ति। अस्तु इति एतत् मनसि स्थापयामश्चेत् लोट् लकार कर्मणि भावे सुलभः भवति, प्रयोगः सुलभः भवति. अतः इदानीं तत्र साक्षात् पाठः तत्र चतुर् किं चतुस्त्रिंशत् अधिकशततमे पुटे अस्ति, तत्र विंशतितमपाठः. तत्र भीष्मः एवाभिरक्ष्यताम् इति तत्र गतवर्गे एकवारं पठितवन्तः, किन्तु तत् बहु पूर्वमासीत् इति कृत्वा प्रायशः तत्र लाभः अस्ति ये पुनः एकवारं पठामः. किन्तु अस्तु, अथवा नो चेत् तत्र अर्शनैः गच्छामः. अस्तु, तत्र अस्तु, तत्र रघुपतिमहोदय आरम्भं करोति वा महोदय? तत्र दुर्योधन
तत्र भीष्मः एवाभिरक्षतां रक्षताम् इति दुर्योधनः आचार्य प्रणामः, कृपया उत्थीयतां, शीघ्रं समुत्थीयतां, सूर्योदयः समासन्नः. अत्र कृपया उत्थीयतां, तत्र उत्तिष्ठतु, कृपया उत्तिष्ठतु इत्यस्य उत्थीयताम्.
इदानीं तत्र उत्थीयताम् इति अस्ति, तत्र तत्र कर्तृपदं नियोजयामश्चेत् तत्र किं भवति महोदय?
अतः भवान् उत्थीयताम् इति भवति, कृपया भवान् उत्थीयताम् इति.
अथवा किन्तु एतत्तु कर्मणि अस्ति महोदय,
कर्मणि उत्तिष्ठ इति, कृपया
तत्र भवान् उत्तिष्ठ,
भवान् उत्तिष्ठतु,
भवान् उत्तिष्ठतु, भवान् उत्तिष्ठतु. इदानीं तत्र इदानीम् एतत्तु कर्मणि अथवा तत्र भावे अस्ति, यतोहि तत्र कर्मपदं नास्ति.
अत्र भवता
भवता भवता कृपया भवता उत्थीयताम्
शीघ्रं समुत्थीयताम्, अत्रापि समुत्थीयतां, सम् उपसर्गपूर्वक
समुत्थीयताम्,
सूर्योदयः समासन्नः, सूर्योदयः समासन्नः.
समासन्नः नाम
सन् सूर्योदयः अभवत् इति
तत्र तस्य समयः सन्निहितः तत्र समीपः अस्ति. तत्र एतावत् सूर्योदयः न अभवत् इति मन्ये खलु महोदय? तत्र
समीपे इदानीं समीपः आगतः इति,
तस्य समयः समीपः आगतः इति,
समयः
तस्य समयः समीपः
इति.
अतः तत्र इदानीं तत्र वयं न जानीमः, किन्तु शीघ्रमेव तत्र कस्मिन् क्षणे भवति इति न जानीमः, किन्तु तत्र शीघ्रमेव तत्र शीघ्रस्य शीघ्रं तत्र सूर्योदयः भवति इति. समीचीनं महोदय, अस्तु, अग्रे अपि तत्र भाग्यत्रयम् इति कृत्वा कुर्मश्चेत् समीचीनं
भवति. वत्स, भवता सावधानेन भूयताम्, त्वरया किमपि न क्रियताम्. वत्स, भवता अतः भूयताम्, भवान् सावधानेन
भवतु,
सावधानेन भवतु, सावधानेन भवतु, सावधानेन भवतु. त्वरया किमपि न क्रियताम्, त्वरया किमपि न करोतु.
त्वरया किमपि भवान् मा करोतु, न करोतु. समीचीनं,
क्रियतां करोतु. दुर्योधनः वदति, गुरुवर्य कथं मया सावधानेन भूयताम् इति. तत्र कथम् अहं सावधानेन भवामि इति,
कथम् अहं सावधानेन भवामि,
भवानि इति, तत्र आतङ्कवता सोरि आतङ्कवता मया किमपि क्रियताम् एव खलु. आतङ्कवता, आतङ्कवान्,
आतङ्कवान्, आतङ्कवान् अहम्, आतङ्कवान् अहम्
अहं किमपि करोमि एव खलु, करवाणि एव खलु,
करवाणि एव खलु. तत्र आतङ्कवान् इति तत्र आतङ्कवत्
आतकवत् इति तत्र
यस्य यस्मिन् इति तत्र
आम्
आतङ्कः तस्मिन् अस्ति तत्र दुर्योधनस्य अथवा दुर्योधने अस्ति इति कृत्वा तत्र आतङ्कवान् दुर्योधनः तत्र आतङ्कवान् अहं मया किमपि
अत्र आतङ्क इत्युक्ते किम्
आतङ्कवान् तत्र अग्रे किं भवति इति तस्य विषये मम मनसि तत्र क्लेशः अस्ति तत्र आतङ्कः अस्ति तत्र किञ्चित् भीतिः अस्ति इति तत्र अग्रे किं भवति इति न जानामि ततः तत्र किमपि कर्तुं सः इच्छति किं भवति किं भवति अतः तत्र किमपि तत्र किमपि कर्तुम् इच्छति तत्र केवलं तत्र न तिष्ठ एकस्थाने स्थातुं न सः न सहते अतः तत्र अतः सः वदति तत्र आतङ्कवान् अहं किमपि करवाणि एव खलु तत्र भीतिः भीतियुक्तः अस्मि तत्र अग्रे किं भवति इति अतः तत्र किमपि न कृत्वा तत्र यदि भवामि तत्र तत्तु न भवति अतः अतः तत्र किमपि करणीयं किन्तु सः न जानाति किं करणीयमिति अपि द्रोणः भवति तत्र त्वरया न किमपि न करोतु इति सूर्यकुमारी भगिनी नमस्कारः
नमस्कारः महोदय क्षम्यताम्
हा चिन्ता मास्तु भगिनि तत्र हा तत्र 134 भगिनी पेज् अस्तु अग्रे रघुवीरनन्दस्वामी अग्रे
आं महोदय
द्रोणः वत्स इति
पूर्वं भवता गत्वा कर्णः उच्यताम् मम पूर्वसूचनानुसारं
न न महोदय
चतुर्थः वत्स जानामि भवतः परिस्थितिं
ओ अस्तु द्रोण वत्स जानामि भवतः परिस्थितिं वत्सेन दुःशासनेन अपि सन्निहितेन भूयतां खलु
अतः तत्र किम् अस्ति महोदय तत्र अहं भवतः परिस्थितिं जानामि अग्रे
वत्सेन दुःशासनेन अपि सन्निहितेन भूयतां खलु
नाम सः अपि तत्र कुत्रापि समीपे अस्ति खलु इति सः पृच्छति अतः दुःशासन वत्सः दुःशासन अपि सन्निहितेन भवतु खलु नाम सः अपि कुत्रापि समीपे अस्ति न वा इति पृच्छति
वत्सः दुःशासनः सन्निहितः भूयात् खलु महोदय
भूयात् इति विधिलिङ्गकारः किन्तु तदपि भवतु भूयात् इति तत्र सन्निहितेन भवतु नाम सन्निहितः तदपि सन्निहितः सन्निहितः भवतु नाम सः अत्र आगच्छतु इति सः अपि तत्र भवतु इति अतः तत्र दुर्योधनः किं वदति उत्तररूपेण
एषः वत्सः दुःशासन उपस्थितः एव अस्ति
हा अतः तत्र सः अन्यत्र नास्ति अत्र एव अस्ति समीपे एव अस्ति उपस्थितः अस्ति सः दुःशासनः अग्रे महोदय
दुःशासनः आचार्य वन्दे
तत्र वन्दे इति कर्तृपदं किं वन्दे इति क्रियापदं कर्तृपदं किम् अस्ति
Mm. वन्दते इति लोट्लक् वन्दे अहं वन्दे
अहं वन्दे खलु
वन्दे वन्दावहै वन्दामहे
हा तत्र अहं वन्दे तावदेव
पुरुषः पृच्छति
तत्र कर्तृपदं किं तत्र अहम् इति पुरुषः प्रथम उत्तमपुरुषः समीचीनं महोदय अस्तु अग्रे
दुर्योधनः आदिश्यताम् अनन्तरं किं क्रियताम् इति
भवान् इदानीं तत्र आदिश्यताम्
आचार्यः आदिश्यताम्
न न न न पुनः इदानीं तत्र कर्मणि प्रयोगः अस्ति महोदय अतः तत्र किं भवति
आचार्यः आदिशतु
न न सः सः करोतु तत्र अस्तु तत्र सः भवतु सः भवतु इति वाक्यं स्वीकरोतु तत्र लट्लकार लोट्लकारः अस्ति परस्मैपदीरूपम् अस्ति अपि कर्तृप्रयोगः अस्ति सः भवति इदानीं तत्र कर्मणि प्रयोगः भूयताम् अस्ति चेत् तत्र सः किं भवति सः इति पदस्य स्थाने किं भवति भवान् इदानीमेव तत्र वाक्यं पठितवान् तत्र भूयताम् इति तत्र कर्तृपदस्य विभक्ति का आसीत्
तृतीया
अतः तत्र आदिश्यताम् अस्ति चेत् तत्र किं भवति
तेन आदिश्यताम्
अथवा आचार्येण समीचीनं आचार्येण भवता आदिश्यताम् अनन्तरं भवता किं क्रियताम् इति अपि तत्रापि भवता एव किं क्रियताम् इति आदिश्यताम् तत्र आदिश्यताम् भवता आदिश्यताम् अस्तु अग्रे महोदय
द्रोण श्रूयताम् प्रथमं सर्वसैन्याधिपः सर्वसेनासंरक्षकः भीष्मपितामहः प्रबोध्यताम्
अतः तत्र किम् अस्ति
भवता श्रूयताम्
भवता श्रूयताम्
श्रूयताम् प्रथमं सर्वसैन्याधिपः सर्वसेनासंरक्षकः भीष्मपितामहः प्रबोध्यतां कर्मणि महोदय
कर्मणि समीचीनं इदानीं तत्र कर्मपदं किं किम् अस्ति कर्मपदं
भीष्मपितामहः इति
कर्मपदं समीचीनम् अपि एकमेव वा अथवा अन्यं
न श्रूयताम् इति अस्ति चेत् तर्हि
न श्रूयताम् इति भिन्नम् इदानीं तत्र प्रथमं
सर्वसैन्याधिपः इत्यादि विशेषणानि खलु
विशेषणं कस्य
भीष्मपितामहस्य
अस्तु अस्तु तत्र सर्वसैन्याधिपः सर्वसेनासंरक्षकः भीष्मपितामहः इति तत्र विशेषणविशेषभावः समीचीनं महोदय तत्र भीष्मपितामहः इति कर्मपदं प्रबोध्यताम् इदानीं तत्र कर्तृपदं किं भवति अस्मिन् वाक्ये कर्मणि प्रयोगवाक्ये भवता भीष्मपितामहः प्रबोध्यताम् इति समीचीनं महोदय अतः तत्र भवता एतत् कार्यं क्रियतां नाम भीष्मपितामहः प्रबोध्यताम् इति समीचीनं महोदय अस्तु अग्रे
दुर्योधनः अस्तु तत्र भवतां स्नानानुष्ठानादि शीघ्रं परिसमाप्यताम्
तत्र परिसमाप्यताम् इति अस्ति तत्र कर्तृपदं किम् अस्ति अस्मिन् वाक्ये
कर्तृपदं
किम् उद्दिश्य दुर्योधनं वदति एतद् वाक्यम् अथवा कम् उद्दिश्य
प्रायः द्रोणः वा
द्रोणम् उद्दिश्य द्रोणम् आचार्यं द्रोणम् उद्दिश्य दुर्योधनः वदति अतः अतः तत्र वाक्यं किं भवति, तत्र भवता परिसमाप्यताम् इति. किन्तु हा किन्तु तत्र भवताम् इति अस्ति, तत्र भवताम् इति का किमस्ति पदम्?
भवतां तु द्वितीय अस्ति.
न न, भवतां स्नानानुष्ठानादिकम् इति
षष्ठी बहुवचनं.
हा षष्ठी बहुवचनं भवताम्. हा षष्ठी बहुवचनं भवतां स्नानानुष्ठानादिकं शीघ्रं परिसमाप्यतां. तत्र एतत् सर्वं भवताम् अनुष्ठानादिकं यत् किमपि यत् अस्ति तत्सर्वं शीघ्रं भवान् परिसमापयतु अथवा भवता परिसमाप्यताम्. एतावत् तत्र केवलं प्रथमपुरुषः एव अस्ति खलु महोदय? वर्धतां वर्धेतां वर्धन्ताम् इति दृष्टवन्तः. तत्र रूपं तत्र कर्मणि प्रयोगस्य साक्षात् धातुः तत्र यकारः इति धातुः, तदनन्तरं यकारः स्वीकृत्य वयम् आत्मनेपदी धातुं कृतवन्तः खलु. तस्य धातोः एव लोट् लकाररूपम् अत्र अस्ति खलु?
सत्यं
महोदय. अतः तत्र आत्मनेपदी धातूनां लोट्लकारस्य ज्ञानम् अस्ति चेत् अत्र एतानि रूपाणि वयं कर्तुं शक्नुमः अथवा तत्र तस्य अभिज्ञानमपि भवति अस्माकम्. अस्तु अग्रे महोदय.
तत्र भवतः साहाय्यार्थं दुःशासनेन अत्र एव स्थीयताम्.
हा तत्र भवतः साहाय्यार्थं कः तत्र तिष्ठति?
दुःशासनः.
हा दुःशासन अत्र एव तिष्ठतु अथवा तेन
स्थीयताम्.
हा तेन अत्र एव स्थीयताम्. अग्रे वत्स. वत्स इत्युक्ते कः?
दुःशासनः प्रायः.
हा वत्स. हा अग्रे.
भवता अत्रैव भूयताम्.
हा भवान् अत्र एव भवतु, अन्यत्र मा गच्छतु, अत्र एव भवतु. तदनन्तरम्
अनुष्ठानान्तरम्.
अनुष्ठानानन्तरं
रणक्षेत्रम् आनीयताम्.
हा आचार्यः रणक्षेत्रम् आनीयताम् इति अस्ति. हा तत्र
आचार्यं.
हा समीचीनं. हा रणक्षेत्रम् आनयतु. तत्र आनयतु इति तत्र प्रायशः तत्र किं द्विकर्मक इति अस्ति वा? नयतु इति अस्ति, आनयतु अपि तादृशमेव.
द्विकर्मक.
हा अतः तत्र हा आचार्यं यः इति तत्र वयं दृष्टवन्तः तत्र क्रियाद्व कर्मपदद्वयमस्ति चेत्
आनयतु.
हा तत्र द्विकर्मकधातुः अस्ति चेत् तत्र गौणकर्मपदम् अपि तत्र अन्यत् किम् आसीत् तत्र?
प्रधानकर्मगौण.
अतः तत्र कर्मणि प्रयोगे तत्र प्रधानकर्मपदस्य एव तत्र प्रथमाविभक्तिरूपम् इति. अतः तत्र प्रायशः तत्र आचार्यः इति एव प्रधानकर्मपदम् इति मन्ये. अतः तत्र आचार्यं रणक्षेत्रम् आनीयताम्. अनुष्ठानानन्तरम् आचार्यं रणक्षेत्रम् आनीयतु. भवान् तत्र दुःशासनं भवान् आनीयतु. समीचीनं महोदय. अस्तु अग्रे शोभा भगिनी.
अत्र महोदय नी दातु तत्र प्रधान प्रधानकर्म रणक्षेत्रम् आचार्यः इति तत्र गौणकर्मण तत्र प्रथमा विभक्ति खलु अत्र.
ओ इति वा महोदय?
द्वितीयविभक्ति भवति प्रधानकर्मण. द्वितीयविभक्ति भवति द्वितीयविभक्ति
प्रधानकर्म. अन्यत्र अन्यस्य अस्तु 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 अस्तु
नी कृषु वहामिति तत्र तत्र चत्वारः दातवः सन्ति तेषां प्रधानकर्मणः भवति कर्मणि प्रयोगे अन्यथा गौणकर्मणः एव
अस्तु महोदय अस्तु धन्यवादः महोदय धन्यवादः अस्तु अत्र अतः तत्र रणक्षेत्रम् इति एव तत्र प्रधानम् अपि आचार्यः इति गौण अत्र
आम् आम्
अस्तु अस्तु महोदय
आचार्यः प्रथमविभक्ति किमस्ति
हा कर्मपदमस्ति महोदय कर्मपदमस्ति
रणक्षेत्रमपि कर्मपदम् अस्ति
हा तत्र द्विकर्मकधातुः अस्ति महोदय तत्र नयतु नयतु इति नयतु इति तत्र नयति इति तत्र कं नयति किं नयति इति भवति
सो रणक्षेत्रं द्वितीयविभक्तिः नास्ति नपुंसकलिङ्गे प्रथमविभक्तिः अस्ति
किन्तु महोदय तत्र हा न न न तत्र कर्मणि प्रयोगे केवलं द्विकर्मकधातुः अस्ति चेदपि तत्र कर्मपदं द्वयमस्ति चेदपि केवलम् एकस्य एव प्रथमविभक्त्यन्तं भवति महोदय कर्मणि प्रयोगे
सो प्रधान न भवति प्रथमविभक्ति
इति एव तत्र मया चिन्तितं किन्तु तत्र आचार्यः इति तत्र गौणः इति रघुपतिमहोदयेन उक्तम् खलु महोदय रघुपतिमहोदय
महोदय तत्र यथा कृषिकः अजां नयति ग्रामम् अजां नयति इति अस्ति नयति कृषिकः तत्र अजाम् इति तत्र प्रधानकर्म अस्ति तत्र तद् अजां नयति एव भवति तत्र कृषिकेन तत्र तत्र तादृशः भवति कृषिकेण
कृषिकेण अजा अजा नीयत् नीयत्
अतः ग्रामं खलु अजाम्
एव नीयते वा तत्र अजा नीयते इति नास्ति वा ग्रामः नीयते वा
क्षम्यता अजानीयते क्षम्यताम् अजानीयते क्षम्यताम्
अजा नीयते अजा ग्रामं नीयते इति
हा अत्र आचार्य क्षम्यताम् अत्र आचार्यः प्रधानः भवति तर्हि तत्र प्रथमा इति खलु
इति अस्तु महोदय
आचार्य
चिन्ता मास्तु महोदय तत्र तत्र कर्मपदं द्वयमस्ति तत्र सर्वदा क्लेशः अस्ति मम
आचार्यः खलु तत्र तदेव
अस्तु महोदय समीचीनं धन्यवादः
यत्र तत्र यत्र यत्र अन्यविभक्तेः तत्र सम्भावना अस्ति चेत् तदेव गौणकर्म अन्य अविभक्तेः सम्भावना नास्ति चेत् तदेव प्रधानकर्म
प्रधानकर्म
रणक्षेत्रे इति भवितुमर्हति खलु
रणक्षेत्राय
इति रणक्षेत्राय ग्रामाय नयति ग्रामाय गच्छति इति तत्र तादृश रणक्षेत्रे
गौण
सप्तमी अपि भवितुमर्हति अतः तत्र
गौण इति धन्यवादः महोदय शोभा भगिनी प्रश्नः अस्ति वा
न हा तत्र कम् इत्यस्य प्रधानः अपि कुत्र इत्यस्य गौण इति वा इति वक्तुम् इष्टवती किन्तु अधुना भवान् उक्तवान् अन्यत् विभक्ति न भवेत् इति किल
आमामां तदेव खलु अकथितर्च इति सूत्रेण भवति अन्यविभक्ति अन्यकारक नास्ति चेत् अन्यकारक न विवक्षा नास्ति चेत् तत्र तत्र विवक्षा अन्यकारकस्य सम्भावना अस्ति परन्तु तद् न विवक्षितम् अस्मिन् तत्र षोडशधातूनां तत्र गौणकर्म भवति प्रधानकर्मस्य कोऽपि अन्यविभक्ति न भवेत् तदेव प्रधानकर्म भवति
प्रधानकर्मपदस्य अन्यविभक्तिरूपं तत्र
न भवति
न सङ्गच्छति
आमां तत्रैव तदेव प्रधानकर्म भवति
रणक्षेत्रे इति भवति
रणक्षेत्राय इति तत्र अतः तत्र तस्य अन्यविभक्त्यन्तं भवितुम् अर्हति अतः सः अतः तत्
आचार्यः न भवति तत्र कर्मलीति कर्म इति द्वितीयविभक्ति एव भवति
अतः तत्र द्विकर्मकधातुः अस्ति चेत् कर्मणि प्रयोगे प्रधानकर्मपदस्य एव प्रथमविभक्त्यन्तं
अत्र प्रधानकर्म पश्यतु महोदय, तत्र षोडशदातवः सन्ति खलु महोदय, तत्र व्यवस्था भिन्ना अस्ति. दुः याच पच दण्ड चि ब्रु प्रचि शास जि मत् मुष् एतेषां तत्र द्वादशधातूनां गौणकर्मणः तत्र गौणकर्मणः भवति, प्रथमाविभक्ति भवति, क्षम्यतां गौणकर्मणः कर्मणि प्रयोगे, सोरि कर्मणि प्रयोगे द्वितीयविभक्ति भवति, सोरि प्रथमाविभक्ति भवति कर्मणि प्रयोगे, परन्तु नी वह् कृष् वह् नी कृष् वह् एतेषां तत्र 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 नी वह् नी कृष् वहाम् इति खलु तत्र हरति हृ धातु नी धातु हृ धातु कर्ष कृष् वह धातु चत्वारणं तत्र गौण प्रधानकर्मणः एव तत्र कर्मणि प्रयोगे प्रथमाविभक्ति भवति, अन्यत्र गौणकर्मणः प्रथमाविभक्ति भवति, तत्र तादृश अस्ति, तत्र किञ्चित्
अस्तु अस्तु
भिन्नमस्ति.
अस्तु धन्यवादः महोदय. अस्तु अतः किन्तु अत्र तत्र क्लेशः मास्तु इति अन्तिम पुनः एकवारं वदामः, नाम आचार्यः इति प्रधानकर्मपदं, रणक्षेत्रं तत् इति गौणकर्मपदं द्वितीया विभक्त्यन्तम्. अस्तु अस्तु शुभभगिनी अग्रे.
आं महोदय, दुःशासनः अस्तु, तत्र अस्तु इति अस्ति चेत्
भूयतां,
भूयतामेव किल,
भूयतां तत्र तद् भवतु अस्तु तेन भूयतां, तेन भूयतां,
भूयतां, तर्हि तत्र दुःशासनः वदति भूयताम् इति. द्रोणः वदति, वत्स ततः पूर्वं भवता गत्वा कर्णः उच्यतां, कर्णः उच्यतां मम पूर्वसूचनानुसारं व्यूहः विरच्यताम् इति. अस्तु तत्र ततः पूर्वं द्रोणः वदति, वत्स ततः पूर्वं भवता गत्वा कर्णः उच्यताम्,
तत्र उच्यतं तावत् पर्यन्तं, तत्र
भवता गत्वा कर्णः उच्यताम् इत्युक्ते भवान् गत्वा तत्र कर्णम् इति भवति, कर्णं अथवा कर्णे
कर्णं 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 वदतु वदतु,
नो चेत् कर्णं वदतु वदतु, कर्णः उच्यताम् कर्णं वदतु,
कर्णं वदतु,
कर्णं
वदतु, हा इदानीं तत्र
भवान् वदतु,
भवान् वदतु, हा समीचीनं, हा भवता उच्यतां,
कर्णः इति प्रथमविभक्तौ आसीत् तृतीया कर्तृपदं भवति चेत् कर्णः इति भवति
भवति
प्रथमविभक्तौ, भवान् इति प्रथमविभक्ति भवति चेत् कर्णम् इति कर्मपदं भवति.
हा अपि अत्र अन्यः अंशः अस्ति, सः अपि तत्र किं तत्र तम् अंशमपि पश्यामश्चेत् समीचीनं भवति, नाम तत्र त्वान्तम् अस्ति चेत् तत्र कर्मणि प्रयोगः कथं भवति इति अत्र उदाहरणम् अस्ति खलु.
हा तत्र कर्तरे अस्ति चेत् त्वान्तपदं कर्मपदं स्वीकरोति,
किन्तु किन्तु अत्र तु भवान् तत्र कर्तृप्रयोगे वदतु, तत्र भवान् गत्वा
तत्र भवान् गत्वा
कर्णं
कर्णं
वदतु वदतु,
तर्हि
अत्र
तत्र पूर्वम् इति अस्ति, किन्तु कर्मपदं तु नास्ति,
न न ततः पूर्वं ततः पूर्वं सत् सत् सर्वम् अव्ययं, गत्वापि अव्ययमेव खलु, त्वान्तं तु अव्ययम्
अव्ययमस्ति, किन्तु कर्मपदं भवनीयम् इति न, तत्र लेबन्त् अस्ति चेदेव कर्मपदं भवनीयम् इति अस्ति वा पूर्वं,
न न न तत्र भवान् गत्वा तत्र कर्मपदं न दत्तं तावदेव,
न तत्र तादृशः नियमः नास्ति वा महोदय?
इति तत् नास्ति खलु, तत्र नगरं गत्वा रणक्षेत्रं गत्वा इति तत्र न उक्तमस्ति, अतः तत्र भवितुमर्हति खलु. तत्र तत्र किमस्ति तत्र कर्मपदम् उक्तं नास्ति, भवान् तत्र गत्वा अथवा भवान् नगरं रणक्षेत्रं गत्वा इति अस्ति.
नास्ति नास्ति, किन्तु तत्र यदि भवेत् तस्य रूपं कीदृशम् इति अग्रे ज्ञास्यामः, किन्तु तत्र क्वान्तमपि तत्र स्थापितुं शक्नुमः इति इदानीं
भवता गत्वा इति अपि भवितुम् अर्हति
अर्हति, भवता गत्वा कर्णः उच्यताम्
तत्र गत्वा इति खलु, तत्र गत्वा रणक्षेत्रं गत्वा अथवा प्रकोष्ठं गत्वा इति.
किमर्थं चेत् तत्र लेबन्त अस्ति चेत् कर्मपदं स्वीकरोति इति
न न लेबन्तं वा क्वान्तं वा तत्र भेदः नास्ति खलु भगिनि, केवलं लेबन्तम् उपसर्गसहित क्रियापदं, त्वान्तं तु उपसर्गरहितक्रियापदम्. अतः तत्र तत्र कोऽपि तत्र भेदः नास्ति, तत्र कर्मपदं भवेत् न वा इति. किन्तु अत्र कर्मपदं न स्वीकृतं, यदि स्थापितुम् इच्छामः तस्य रूपं किम् इति एतावत् न जानीमः, अग्रे प्रायशः पश्यामः.
मम पूर्वसूचनानुसारं व्यूहः विरच्यताम् इति
इदानीं तत्र
इति कर्मणि तत्र मम पूर्वसूचनानुसारं व्यूहः इति तत्र व्यूहः कर्मपदं भवति.
समीचीनम्. इदानीं तत्र मम इति मम
षष्ठी तत्र, किन्तु
पूर्वसूचना तत्र सूचना कस्य
परिवर्तनं नास्ति.
तत्र कस्य सूचना? मम सूचना, मम पूर्वसूचना, पूर्वं कृता सूचना,
पूर्वं कृता सूचनानुसारं व्यूहः विरच्यताम् इति.
किन्तु केन विरच्यताम्?
तत्र कर्णेन विरच्यताम्.
कर्णेन विरच्यतां, समीचीनं भगिनि. अतः तत्र तं वदतु,
तं वदतु यत् यत् पूर्वसूचनानुसारं व्यूहं रचयतु.
विरचयतु इति वदतु, कर्णं
वदतु,
कर्णं वदतु. समीचीनं भगिनि, वदतु. समीचीनं भगिनि, अस्तु अग्रे.
अश्वाः गजाः रथाः पदातयः सर्वे सैनिकाः च यथा स्थानं स्थाप्यन्ताम् इति.
तत्र व्यूहस्य रचनसमये तत्र के कुत्र कुत्र भवन्ति इति तत्र सूचना आवश्यकं खलु, अतः
तर्हि तत्र ते सर्वे अश्वाः इति अश्वान् गजान् रथान् इति भवति
वा? सत्यं सत्यं, सत्यम्. अश्वान् गजान् रथान्
तयः इति अस्ति तत्र, पदा तयः कदा भवति इत्युक्ते पुंलिङ्गे कदा भवति तयः इति बहुवचने महोदय? पदातयः
हरयः.
अस्तु, पदातिः इति अस्ति महोदय. अस्तु, हरय तत्र हरयः अस्ति चेत् हरीन्
पदातीन्
सर्वान् सैनिकान् च यथा स्थानं स्थापयतु इति.
यथा, समीचीनं भगिनि, यथा स्थानं स्थापयतु इति. समीचीनम्, अग्रे.
अहम् अनन्तरं तत्रैव दृश्यै इति. तत्र अहम् इति अनन्तरं तत्रैव दृश्यै इति उत्तमपुरुषे उक्तमस्ति तत्र, अतः तत्र अहम् अस्ति, अहमेव, अहं दृश्यै इति भवति.
किन्तु तत्र दृश्यै इति अस्ति, किन्तु तत्र
वर्तै वर्धै इति लो
तत्र हा तत्र भगिनी तत्र केवलं तत्र लोट् एव अस्ति
लोट् एव अस्ति
लोट् एव अस्ति किन्तु कर्मणि नास्ति तावत्
एव
अहं दृश्ये तत्र मया अस्ति चेदपि प्रायशः तत्र दृश्यै एव भवति इति मन्ये
मया दृश्यै हा किं आत्मनेपदीरूपम् अस्ति किल महोदय तत्र
हा अतः तत्र
तदेव भवति किल
दृश्यै हा किन्तु अत्र
भवान् मां तत्र पश्यति इति दृश्यै इति खलु पश्यतु
अहम् अनन्तरं तत्रैव
अहम् इति अस्ति अत्र भवान् भवता अहं तत्रैव दृश्ये इति खलु तत्र तादृशः अस्ति खलु
न न महोदय तत्र भवता अस्ति चेत् प्रथमपुरुषः अस्ति खलु महोदय क्रियापदस्य प्रथमपुरुषरूपम् आवश्यकं किन्तु तत्र दृश्य इति उत्तमपुरुषः एकवचनं महोदय
दृश्य इति उत्तमपुरुष दृश्य इति पश्य दृश्य
न दृश्य इति तु दृश्य इति महोदय एतावद् दृष्टवन्तः खलु महोदय भूयताम्
आमां
भूयतां प्रथम लोट्लकार लोट्लकार प्रथमाविभक्ति प्रथमपुरुषः
एकवचनं
इदानीं तत्र सहाय् इति सहाय् इति दृष्टवन्तः खलु महोदय पूर्वं वर्धै वर्धै वर्धावहै वर्धामहै इति अतः उत्तमपुरुष एकवचनं दृश्ये इति उत्तमपुरुष एकवचनम् एव किन्तु तत्र केवलम् अहं दृश्ये इति अस्ति चेत् तत्र कर्तृप्रयोगे लोट्लकारः
कर्मणि प्रयोगे इति अत्र कर्ता
न तत्र कर्मणि अस्ति चेत् दृश्ये इति भवति भवता दृश्ये इति भवति
न दृश्ये न भवति कदापि न भवति भगिनि
तत्र पूर्वं दृष्टवन्तः महोदय उत्तमपुरुषे कर्मणि अस्ति चेत् बालेन अहं दृश्ये इति किन्तु तत्र तु दृश्यै इति अस्ति कर्मणि
ऐकारः अस्ति ऐकारः तु लोट्लकारस्य रूपं
कर्मणि प्रयोगे खलु
कर्मणि कर्मणि अपि भवितुम् अर्हति महोदय
अहं लट् दृश्य दृष्टवती क्षमतां क्षमतां तत्र लोट् अस्ति दृश्य इति
दृश्य इति लोट्लकारः कर्मणि अपि भवितुम् अर्हति अपि तत्र कर्तृ अपि भवितुम् अर्हति
दृश्यदातो पश्य भवति खलु महोदय तत्र पश्यति खलु कर्तरि
पश्यति हा तत्र सत्यं सत्यं महोदय सत्यं सत्यं
कर्मणि अस्ति लोट् लकारे अस्ति अतः अहम् इति तत्र कर्मपदमस्ति अहं दृश्ये अतः
न महोदय तत्र दृश्ये तु उत्तमपुरुष खलु महोदय
उत्तमपुरुषः अस्ति वा भावकर्मणि दृश्ये
दृश्यै
दृश्ये खलु उत्तमपुरुषः आमाम्
अतः प्रायशः अस्तु एतद् अतः तत्र मया अनन्तरं तत्रैव दृश्यै इति
न महोदय तत्र
अथवा मां
खलु तत्र मां खलु भवता अहं दृश्ये इति अस्ति भवान् माम् अत्र तत्र
पश्यतां तत्र दृश्यताम् इति भवति दृश्यतां भवता भवता अहं दृश्यतां प्रायशः तद्
न अहं दृश्यतां न भवति खलु तत्र तत्र कर्मणि प्रयोगे अस्ति खलु तत्र कर्मपदस्य एव भवति खलु तत्र
अतः तत्र दृश्य इति रूपं त्यजामः दृश्यतां
किन्तु महोदय दृश्यतां भवति चेत्
पश्यतु इति खलु महोदय भवान् माम् अत्र पश्यतु इति भवति कर्तरि प्रयोगे
अस्तु महोदय अस्तु अस्तु
दृश्यै इति भवति खलु तादृश भवति खलु भवता अहं दृश्यै इति कर्मणि प्रयोगे
इदानीम् अवगतं महोदय सत्यं 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 महोदय धन्य
इति भवति
इति 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 सत्यं महोदय सत्यं धन्यवादः मम मनसि एव क्लेशः आसीत् सत्यं अहम् अनन्तरं भवता तत्र दृश्यै सत्यं महोदय समीचीनमेव उत्तमपुरुषः अहम् इति तत्र कर्मपदम् अनुसरति खलु कर्मणि प्रयोगे
आमाम् अतः प्रथमविभक्ति भवति उक्तं
प्रथमविभक्ति
कर्म उक्तमस्ति अतः तत्
सत्यं सत्यम् अहम् अनन्तरं तत्रैव भवता दृश्यै इति समीचीनम् इदानीम् अवगतं मया अवगतम् अस्तु शोभा भगिनी भवत्यापि अवगतं वा भगिनी भगिनी
आं महोदय अत्र भवता एव भवति
अस्तु मम मनसि क्लेशः आसीत्
प्रथमपुरुषः भवति तत्र अतः अहम् इति न भवति दृश्यताम् इत्युक्ते प्रथमपुरुषे भवति दृश्यै एव
उत्तम इति अहं सत् अहम् अहं सत् समीचीनं तत्र भवता अहम् अनन्तरं तत्रैव दृश्यै
इति
समीचीनं
धन्यवादः महोदय यदि अपेक्ष्यते भवान् एव स्वयं साहाय्यकत्वेन स्वीक्रियताम् इति च यदि अपेक्ष्यते तत्र यदि भवता अपेक्ष्यते भवान् एव स्वयं साहाय्यकत्वेन स्वीक्रियताम् इति च तत्र स्वीक्रियताम् इति अस्ति चेत् स्वीकरोतु इति भवति भवान् इति किं स्वीकरोतु इत्युक्ते स्वयं साहाय्यकत्वेन स्वीक्रियताम् यदि अपेक्षते अस्तु यदि अपेक्षितं भवता यदि अपेक्षितं चेत् भवान् एव स्वयं साहाय्यकत्वेन स्वीकरोतु इति भवति वा महोदय तत्र तत्र किं स्वीकरणीयं तत्र अहम् अस्तु वदतु इति तत्र स्थापयतु तदनन्तरम् अहमपि तत्र एव भवामि इति
उक्तवान्
तदा तदनन्तरं यदि अपेक्षते भवान् एव स्वयं साहाय्यकत्वेन स्वीक्रियताम् इति किं स्वीक्रियतां तत्र
हा तत्र साहाय्यकत्वेन
तत्र भवता गत्वा कर्णः उच्यतां सो कर्णम् उच्य वदतु स्वयं साहाय्यकत्वेन स्वीक्रियताम्
भवन्तं स्वीकरोतु भवन्तं स्वीकरोतु इति उच्यत कर्णं वदतु भवन्तमेव भवानेव तत्र सहायकत्वेन भवतु इति अर्थे द्रोणः वदति खलु तद्
ओ सत्यं महोदय तत्र कर्णस्य साहाय्यं करोतु
भवान् इति अस्ति कर्मपदमस्ति अतः तत्र भवन्तम् इति भवति भवन्तं स्वीकरोतु इति वदति
तत्र
तादृश
सत्यं महोदय तत्र प्रायशः तत्र द्रोणः दुःशासनं प्रति वदति तत्र कर्णं प्रति गत्वा एतत् सर्वं वदतु अपि तत्र यदि साहाय्यम् अपेक्षितं चेत् साहाय्यम् अपि करोतु इति कर्णस्य साहाय्यं शोभा भगिनी तत्र किं
चिन्तयति
कर्णस्य साहाय्यं करोतु इति
अस्तु तत्र स्वीक्रियताम् भवता स्वीक्रियताम् इति भवति भवता स्वीक्रियताम् इति भवति किल महोदय कर्णस्य साहाय्यं स्वयं स्वीकरोतु इति किल
भवान्
यदि अपेक्ष्यते भवान् एव स्वयं स्वीकरोतु इति तु भवति तत्र स्वीकरोतु किं स्वीकरोतु इत्युक्ते साहाय्यकत्वेन कर्णं स्वीकरोतु इति वा
कर्णस्य
तत्र मम मनसि किञ्चित् क्लेशः अस्ति भगिनि तत्र सम्यक्तया न जानामि यत्र तत्र कर्णस्य साहाय्यम्
अस्ति खलु इति अस्ति खलु वाक्यं वक्तव्यम् इति अस्ति भवन्तम् आम्
इति च
भवन्तम्
ओ अस्तु इति च अस्तु
इति च इति सर्वत्र इति अस्ति
अतः तत्र
वाक्यं वदतु इति
ओ अतः महोदय तत्र कर्णस्य साहाय्यं न किन्तु
कर्णं प्रति
वदति यदि यदि किन्तु कर्णं प्रति किं वदति दुःशासनस्य साहाय्यं स्वीकरोतु इति वा
आमामां तदेव अस्ति
आं महोदय
तदेव खलु
अपेक्षते भवान् एव स्वयं साहायकत्वेन स्वीक्रियताम् इति. अस्तु, तर्हि करणम् एवम् अपि वदतु, यदि सः अपेक्षयति तर्हि भवन्तम् एव स्वयं साहायकत्वेन स्वीकरोतु इति वदतु इति.
इति सत्यं, तादृशम् अस्ति. समीचीनं भगिनि,
अस्तु, धन्यवादः. भवन्तौ
सर्वं मिलित्वा तत्र सर्वैः मिलित्वा कृतम्. अस्तु भगिनि, अग्रे
अग्रे दुर्योधनः वदति अस्तु इति गतः. अस्तु इति उक्त्वा सः अपगच्छति. तेन अपगतः इति भवति वा महोदय? तेन अपगतः,
तेन अपगतः अथवा सत्यं.
सर्वे
सः गतः इति
सः गतः सः गतः
सः गतं कर्तरि प्रयोगे भवति,
कर्त्री सः गतः विशेषणं भवति गतः सः गतः
ताप्रत्यय तत्र
कर्त्रर्थे कर्त्रर्थे भवति
भवितुमर्हति. सः गतवान् तेन गतम् इत्यपि भवितुमर्हति अथवा सः गतः इति द्वयमपि साधुः.
तत् अहं गतः अपि च मया गतः इति अपि भवितुम् अर्हति तत्र.
मया गतं
गतं मया गतं
मया
गतम् अथवा अहं
गतः
गतः पुल्लिङ्गे गता इति स्त्रीलिङ्गे
मया ग्रामः गतः इति तद् भवति.
तत्र गत्यर्थकौ एव भवति तादृशम् इति सर्वे भीष्मः द्रोणः कर्णः कृपः दुर्योधनः दुर्योधनः एव वदति तत्र. अस्तु, दुर्योधनः
तदनन्तरं केवलं वाक्यमस्ति भगिनि, कस्यापि वाक्यं नास्ति, केवलं विवरणम् अस्ति.
दुःशासनश्च रणाङ्गणे स्थिताः. अस्तु,
तत्र
भीष्मः द्रोणः कर्णः कृपः दुर्योधनः दुःशासनः च तत्र रणाङ्गणे स्थिताः
आसन्. समीचीनं भगिनि, अस्तु अस्तु, धन्यवादः भगिनि,
धन्यवादः.
अस्तु, अग्रे गीताञ्जलि भगिनि, नमस्कारः भगिनि. अस्तु, इदानीं तत्र नरेश् महोदय अग्रे पठति वा महोदय?
आं महोदय. कर्णः आचार्य प्रणमामि. कर्णः प्रणामं करोति आचार्यं. द्रोणः, वत्स यशोवता समेध्यताम्. यशोवता समेध्य
तत्र यशोवता इति विभक्ति का तत्र
तृतीय
प्रथमविभक्ति किं का भवति?
यशवान्
यशोवान्
यशोवान् यशोवत समेध्यतां समेध्यतां सम उपसर्ग अस्ति.
इद्यतां समेध्यतां
एदति वा एद् दातु अस्ति एदते इति खलु
वृद्धः कः
एदते इति तत्र वृद्धते
वर्धनम् इति
वृद्धि वर्धते इति खलु एदते इति
एदते अस्तु
एदते खलु
वर्धते अस्तु अस्तु अतः तत्र यशोवान्
समेध्यताम्
नाम तत्र
यशोवान् तत्र एदताम् इति खलु
नाम तत्र भवतः यशः वर्धतु इति अस्तु.
भीष्मः आचार्य ममापि एष नमस्कारः.
भीष्मः द्रोणं प्रति वदति मम नमस्कारः इति. इदानीं द्रोणः किं वदति?
पितामह मया एव ननु भवान् अभिवाद्यताम्.
नाम
ममपि अभिवादनं करोमि.
किन्तु मम एव करणीयं खलु, मया एव करणीयं खलु, न तु भवता इति सः वदति. मया एव ननु भवान् अभिवाद्यतां न तु भवतः नाम अहमेव तत्र भवतं नमस्करोमि तदेव तत्र रीतिः अथवा सा एव पद्धतिः किन्तु सः एव पद्धतिः किन्तु भवान् किमर्थं तत्र नमस्कारः इति वदति इति हा अतः तत्र मया एव ननु भवान् अभिवाद्यतां मया अभि
ननु किमस्ति
ननु मा नाम खलु इति केवलम् अहमेव मया एव करणीयं खलु इति भवान् अभिवाद्यतां मया अभि भवान् अभिवाद्यतां तत्र भवान् इति कर्मपदं
भीष्मः मया एव अभिवाद्यताम् अथवा आवाभ्याम् आवाम् अन्योन्यम् अभिवन्द्यावहै
अथवा
द्वौ अस्ति
तत्र द्रोणः अस्ति भीष्मः अस्ति तत्र भीष्मः किं वदति आवाभ्याम्
आवाभ्याम् अन्यकृते अभिवन्द्यावहै
तत्र आवाभ्याम् आवाम् अन्योन्यम् अभिवन्द्यावहै तत्र आवाभ्याम् इति विभक्ति का
तृतीयविभक्ति
तृतीयविभक्ति द्विवचनम् आवाम् इति
आवां द्विवचनं
प्रथमाविभक्ति
प्रथमाविभक्ति
किन्तु कर्मपदं कर्मपदं तत्र आवाभ्याम् इति कर्तृपदम् आवाम् इति कर्मपदम् अभिवन्द्यावहै नाम अन्योन्यं तत्र परस्परं परस्परम् अभिवन्द्यावहै अतः तत्र द्रोणः द्रोणेन तत्र भीष्मः अभिवन्द्यताम्
भीष्मेन
द्रोणः अभिवन् अभिवाद्यताम् अभिवाद्यताम् अग्रे
अस्तु आवाभ्यां परस्परं हस्ताः गृहं
गृह्णन्ताम् हस्ताः इति बहुवचने
गृह्यन्तां
खलु ओ क्षम्यतां गृह्यन्तां गृह्यन्तां क्षम्यतां गृह्यन्तां गृह्यन्तां हस्ताः गृह्यन्तां तत्र आवाभ्याम् इति पुनः कर्तृपदं हस्ताः कर्मपदं
हस्ताः कर्मपदम्
वयं परस्परं
हस्ताः गृह
हस्तान्
गृह्यन्ताम्
गृह्यन्ताम् इति कर्मणि किन्तु तत्र कर्त्री लोट् किं भवति
गृह्णातु
गृह्णाव वय आवां परस्परं हस्तान्
गृह्णामः
गृह्णाव तत्र विसर्गः नास्ति
गृह्णाः गृह्णीवः
ओ गृह्णीवः अस्तु
गृह्णीवः
अस्तु अस्तु महोदय गृह्णीवः अस्तु महोदय गृह्णीवः इति अस्तु
गृह्णातु गृह्णी
सत्यं सत्यं महोदय गृह्णीव गृह्णीव इति एव सत्यं 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 महोदय तदेव अस्ति इति मन्ये
ईत्वं भवति अत्र ई हल्यो गोष्ठनेन अस्तु ईत्वं भवति
तत्र गृह्णीव
खलु
सत्यं तदेव अस्ति इति मन्ये महोदय एकवारं पश्यामि तत्र
नापि नास्ति गृह्णाति गृह्णीतः खलु अतः तत्र प्रायः
किमस्ति भगिनि गृह्णी लोट्लकारः गृहधातोः लोट्लकारः उत्तमपुरुष द्विवचने किम् अस्ति भगिनि
अस्ति गृह्णानि
एकवचने
लोट्लकः गृह्णाव नास्ति गृह्णानि गृह्णावः एव गृह्णी गृह्णीव नास्ति तत्र
गृह्णीव इति नास्ति वा अस्तु अस्तु गृह्णा
लोट्लकार एव लट्लकारे एव गृह्णीवः इति लोट्लकारे नास्ति तत्र पित् अस्ति खलु अतः तद् न भवति क्षम्यताम् अत्र तत्तु पित् अस्ति अतः तत्र आव इति भवति पित् अस्ति चेदेव ईत्वं भवति गृह्णीवः गृह्णीमः इति गृह्णीतः गृह्णन्ति इति तत्र गृह्णाव इति गृह्णाव
परस्मैपदी अस्ति
परस्मैपदी एव आमां
परस्मैपदी अस्ति
गृह्णाव गृह्णाव
अस्तु गृह्णाव अस्तु समीचीनम् अस्तु
अग्रे
किं भगिनि
एकवचनं
गृह्णानि इति एकवचनं एकवचनं
गृह्णाव विसर्ग नास्ति गृह्णाव इति
विसर्ग नास्ति गृह्णाव गृह्णाम इति बहुवचनं विसर्ग नास्ति अस्तु अग्रिम
दुर्योधनः आचार्य आगम्यताम् अत्र
हा तत्र भवता आगम्यता भवान् अत्र आगच्छतु
आगच्छतु प्रियमित्रेण कर्णेन भवतः सूचनाम् अनुसृत्य व्यूहः रचितः
हा तत्र कर्णः किं कृतवान् प्रियमित्रः प्रियमित्रं कर्णः किं कृतवान्
सः व्यूहं रचितवान्
हा व्यूहं रचितवान् भवतः सूचनाम् अनुसृत्य सः व्यूहं रचितवान्
इदानीं वीक्ष्यताम्
हा नाम व्यूहः वीक्ष्यताम्
दृश्यताम्
वीक्ष्यताम् वीक्ष्यते हा
वीक्ष्यते
हा वीक्ष्य वीक्ष्यते वीक्ष्यते ईक्षते तत्र वीक्ष्यते इति वीक्ष्यताम् तत्र आत्मनेपदी धातु खलु ईक्षते तदनन्तरम् ईक्ष्यते इति भवति ईक्ष्यते इति कर्मणि लट्लकारे तदनन्तरम् ईक्ष्यतां वीक्ष्यताम् इति लोट्लकारे
लोट्लकारे
हा समीचीनं महोदय धन्यवादः अस्तु अग्रे सूर्यकुमारी भगिनी अग्रे
कर्णः वदति महाशय रथाः यत्र स्थाप्यन्ताम् इति सूचिताः तत्र स्थापिताः
तत्र
महाशय अहं चिन्तयामि सम्बोधन दुर्योधन
न प्रायश तत्र न तत्र द्रोणः खलु तत्र द्रोणः पूर्वम् उक्तवान् खलु तत्र अश्वाः गजाः रथाः तत्र यथास्थानं स्थापयतु इति अतः तत्र
रथाः यत्र स्थाप्यन्ताम् इति सूचिताः तत्र स्थापिताः
हा तत्र भवता भवता सूच भवता रथाः यत्र स्थाप्यन्ताम् इति सूचिताः नाम भवान् रथान् यत्र स्थापयतु इति सूचितवान् तत्र वयं स्थापितवन्तः तान् रथान् स्थापितवन्तः अवगच्छति खलु भगिनि हा तत्र भवता स्थाप्यन्तां रथाः भवता रथाः यत्र स्थाप्यन्तां कर्मणि अथवा भवान् रथान् यत्र स्थापयतु इति रथान् स्थापयतु इति सूचितवान् तत्र स्थापित वयं स्थापितवन्तः वयं अग्रे
ईमे गजाः ईमे अश्वाः एते पदातयः च अवलोक्यन्ताम्
हा तत्र कर्मपदं किमस्ति अत्र
कर्मपदं गजाः
हा अश्वाः पदातयः सर्वे समीचीनं हा इदानीं तत्र कर्तृपदं किमस्ति भवता तत्र न दत्तं किन्तु भवता अवलोक्यन्ताम् भवता इति कर्तृपदं कर्मणि प्रयोगे अस्ति अतः तृतीया अस्ति
कर्णेन
न कर्णेन न कर्णः वदति द्रोणम् उद्दिश्य वदति द्रोणम् उद्दिश्य भवति द्रोणाचार्य भवान् पश्यतु किं पश्यतु भवता अवलोक्यन्ताम् भवता अथवा भवान् गजान् अश्वान् पदातीन् च पश्यन्तु इमान् हा इमान् समीचीनं महोदय अवलोक्यन्तां भवता अवलोक्यन्ताम् किमर्थम् अवलोक्यन्तम् इति बहुवचने अस्ति
कर्मपदं बहुवचनं
बहुवचने अस्ति समीचीनं भवति भगिनि हा अस्तु अग्रे
द्रोणः वदति आम् आम् अस्तु व्यूहपत्रं पठ्यतां मम उत्तरीयं किञ्चित् उन्नीयताम् द्रोणः वदति व्यूहपत्रं पठ्यताम्
भवता व्यूहपत्रं पठ्यतां नाम भवान् व्यूहपत्रं
पठतु
समीचीनम् अपि
मम उत्तरीयं किञ्चित् उन्नीयताम्
तत्र उत्तरीयं तत्र अधो आगतम् अस्ति तत्र तत् किञ्चित् उन्नीयतु तत्र नयतु उन्नयतु प्रायशः उन्नयतु उन्नयतु
दुर्योधनः वदति आचार्य तव धीमता शिष्येन पृष्ठद्युम्नेन व्यूढा चमुः दृश्यताम् दुर्योधन वदति द्रोण उद्देश्ये आचार्य तव धीमता शिष्येन दृष्टद्युम्नेन व्यूढाः चमुः दृश्यताम् व्यूढाः चमुः दृश्यताम् व्यूढान् चमुः व्यूढान् बहुवचनं चमुः
तत्र दृश्यतां व्यूढा इति एकवचने अस्ति तत्र दृश्यताम् इति अस्ति दृश्यताम् इति तत्र कर्तृपदं किम् अस्ति
कर्तृपदं द्रोणः
तत्र भवता दृश्यताम् अतः भवान् पश्यतु भवान् पश्यतु तत्र कर्मपदं किम् अस्ति
कर्मपदं
चमूः चमूः खलु चमूः दृश्यताम् खलु भगिनि चमूः चमूः इति अस्ति तत्र चमूः इति तत्र लिङ्गं किम्
स्त्रीलिङ्गं
चमु इति चमूः स्त्रीलिङ्गम् अतः तत्र विशेषणं किं तस्यापि स्त्रीलिङ्गं व्यूढा तत्र
चमूः द्वितीय
प्रथमाविभक्ति यतोहि कर्मपदं कर्मणि प्रयोगे तत्र कर्तृप्रयोगे किं भवति भवान् व्यूढां चमूं पश्यतु तत्र किन्तु व्यूढा नाम तत्र कृता इति व्यूढा रचिता न क्षम्यतां तत्र व्यूढा तदेव भवति इति मन्ये व्यूढा चमु व्यूढा इति कृता इति मन्ये तत्र कृता इति अर्थे
तेन कृता
इति कृता तत्र तेन तेन व्यूढा तेन कृता तत्र केन कृता तत्र दृष्टद्युम्नेन कृता इति अर्थे तत्र कृता इति स्थाने व्यूढा इति भवति तत्र धातुः कः इति न जानामि तत्र कृता इति धातुः व्यूढा इति धातुः कः इति
तत्र एते द्यूट्सु इति अस्ति वा महोदय सूत्रं
कुत्र
ऊट् इति भवति तत्र वह् इत्यस्य ढकारः कथं भवति इत्यस्य
तत्र होडः इत्यनेन भवति तत्र होडः इत्यनेन हकारस्य ढकारः भवति
अस्तु
अस्तु समीचीनं हा अतः तत्र कृत इति अर्थः समीचीनं धन्यवादः अतः तत्र दृष्टद्युम्नः चमुं रचितवान् अथवा कृतवान् तां चमुं पश्यतु भवान् पश्यतु अग्रे
अत्र महेश्वासाः शूराः भीमार्जुनसमाः सन्ति
हा तत्र शूराः सन्ति कीदृशशूराः शूराः सन्ति तत्र
भीमार्जुनसमाः
हा तत्र तेन तत्र भीमार्जुनतुल्याः तत्र नाम समानः ते
समानः सन्ति
सन्ति इति समीचीनं भगिनि अस्तु अग्रे तत्र अग्रिमं वाक्यमपि करोतु भगिनि तदनन्तरं
कर्णः वदति सखे
हा
परेषां विषये चिन्ता त्यज्यतां भवता
तत्र चिन्ता त्यज्यतां भवता चिन्ता त्यज्यताम् तत्र कर्मणि प्रयोगे किं भवति
भवान् त्यजतु
किं त्यजतु
चिन्ता त्यजतु
चिन्तां त्यजतु
चिन्तां त्यजतु
हा परेषां विषये चिन्तां
त्यजतु
भवान् त्यजतु
अस्माकं जनाः नायिकाः गणयन्ताम्
गण्यन्ताम्
गण्यन्ताम् अस्माकं जनाः नायिकाः गण्यन्तां कर्म
तत्र पुनः तत्र भवता गण्यन्तां कर्मणि प्रयोगः अस्ति इदानीं कर्तृप्रयोगः कथं भवति भवान्
गणयतु
हा अस्माकं जनान् नायकान् गणयतु गणयतु कति जनाः सन्ति इति एकवारं भवान् गणयतु परेषां विषये चिन्तां त्यजतु मास्तु त्यजतु हा समीचीनं भगिनि हा अस्तु धन्यवादः अस्तु अग्रे गीताञ्जलि भगिनि न श्रूयते भगिनि अस्तु गीताञ्जलि भगिनी न श्रूयते अस्तु तर्हि तत्र रघुपतिमहोदय अग्रे
आम् एकवारं तत्र इच्छामि अस्तु व्यूहपत्रम् अस्तु अग्रे एव तत् अनन्तरं
द्विजोत्तम दुर्योधनः द्विजोत्तम
दुर्योधनः अस्तु दुर्योधनः दुर्योधनः आचार्य अस्तु एकवारं कारणं
न न द्विजोत्तम मम सैन्यस्य नायकाः
दुर्योधनः द्विजोत्तम मम सैन्यस्य नायकाः एते मम सैनिकस्य सैन्यस्य नायकाः एते सन्ति अस्तु द्रोणः अस्तु श्राव्यन्तां श्राव्यन्ताम् इति अस्तु अत्र श्रूयत
नायकाः
नायकानां श्रावयतु
श्रावयतु तत्र प्रायशः नायकानां नामानि श्रावयतु श्राव्यन्ताम् इति
नायकनामानि
श्राव्यन्तां
श्राव्यन्ताम् इति दुर्योधनः भवान् भीष्म कृप अश्वत्थाम विकर्ण भूरिश्रवाः एते कर्णादयः अन्ये अपि मदर्थे त्यक्तजीविताः इति तत्र
तत्र अतः तत्र सर्वं सरलमेव केवलं तत्र त्यक्तजीविताः इति तस्य तत् मदर्थे त्यक्तजीविताः
त्यक्तजीविताः
तत्र त्यक्तजीविताः इत्युक्ते
त्यक्तजीविता इत्युक्ते मदर्थे तत्र जीवनमपि स्वस्य प्राणान् त्यक्तुं तत्र उद्युक्ताः सन्ति
समीचीनं महोदय तत्र त्यक्तजीविताः तत्र
समासः अस्ति
हा समासः अस्ति त्यक्तजीवितः त्यक्तवन्तः
त्यक्तजीविताः
दुर्योधनाय तत्र जीवनं तत्र समर्पितवन्तः
समर्पितवन्तः इति
समर्पितवन्तः इति दुर्योधनाय
भीष्मः प्रतिहतम् अमङ्गलं जीवितानि न त्यज्यन्ताम्
दुर्योधनः वदति तत्र जीवनं त्यक्तजीविताः इति किन्तु भीष्म भवति प्रतिहतम् अमङ्गलम् इति
अमङ्गलं तत् त्यक्तजीवितानि न सन्ति इदानीम् अग्रे भविष्यति
हा किन्तु इदानीं मास्तु इति तत्र अतः जीवितानि न त्यज्यन्ता
जीवितानि न त्यज्यन्ताम्
हा भवता तत्र भवता दुर्योधनेन जीवनानि जीवितानि न त्यज्यन्ताम् मा त्यजतु
तत्र प्रतिहतम् इत्युक्ते किं कथं कीदृशः अर्थः भवति महोदय प्रतिहतम्
प्रतिहतम् अमङ्गलं नाम
मरणसिद्धाः सैनिकाः
प्रति इत्युक्ते तं प्रति इति भवितुम् अर्हति किल महोदय तं प्रति अथवा किमपि तादृशं प्रति इति प्रतिहतम् इत्युक्ते तत्र लिटरल् मीनिङ्ग् किं भवति महोदय प्रतिहतम् इति
अत्र
हतः इति भवति हतः इति अस्ति तत्र कृतमनोभङ्गः वर्गः विशेषनिघ्नवर्गः मनोहतः प्रतिहतः प्रतिबन्धः हतः इति तत्र दत्तमस्ति अहं न जानामि तत्र
न जानामि भगिनि तत्र सम्यक्तया न जानामि
तर्हि तत्र पूर्वमेव हतम् इति किल इति अर्थे
वा त्यक्तजीवित इति वदति खलु त्यक्तजीवित इति पूर्वमेव वदति विद्वत् पूर्वमेव
हा प्रायशः तादृश अर्थः भवेत् हा अस्तु
सः एव निश्चितवान् यत् ते सर्वे
जीवनं त्यजन्ति इति
अग्रे त्यजन्ति इति सूचनां ददाति तत्र तत् तादृशं मा वदतु इति
हा पुनः एकवारं तत्र पृष्ट्वा वदामि भगिनि हा तत्र अन्वेषणं कुर्मः तत्र प्रतिहतं पदस्य अर्थः कः इति समीचीनप्रश्नः अस्तु इदानीं तत्र जीवितानि न त्यज्यन्ताम् अस्तु अग्रे ओ
आचार्य
तत्र एतद् वाक्यं पठतु
अनेन भीष्माभिरक्षितेन अस्माकं बलेन पर्याप्तेन न भूयते तेन भीमाभिरक्षितेन पाण्डवानां सैन्येन पर्याप्तेन भूयते इति मन्ये आचार्य अनेन भीष्मरक्षितेन अस्माकं बलेन पर्याप्तेन न भूयते भूयते इति अस्ति तत्र तत्र किमस्ति तत्र भवति इति पर्याप्तं पर्याप्तः अस्तु अयं भीष्माभिरक्षितम् अस्माकं बलं पर्याप्तं न भवति इति
हा तत्र अस्माकं बलं पर्याप्तं तत्र तुल्यः नास्ति तत्र हा तत्र तेषां कृते तत्र तत्र अपेक्षया तत्र हा
तेषां
तेषां तत्र अपेक्षया अस्ति चेत् तत्र विभक्ति का तस्य हा तस्य षष्टि एव तस्य हा तेषाम् अपेक्षया तत्र अस्माकं सैन्यं तत्र बलवन्तं तत्र बलवतं नास्ति बलवत् नास्ति इति अतः तत्र भीष्माभिरक्षितेन अस्ति किन्तु पर्याप्तं बलं पर्याप्तं नास्ति तत्र भीमाभिरक्षितेन पाण्डवानां सैन्यं पर्याप्तम् अस्ति इति अहं चिन्तयामि इति अस्ति अस्तु समीचीनं महोदय अस्तु इदानीं तत्र किञ्चिदेव अस्ति तदनन्तरं तत्र अभ्यासं कर्तुं शक्नुमः अस्तु तर्हि अस्तु तत्र रघुवीरनन्दस्वामी तत्र अन्ते शान्तिमन्त्रं वदति वां स्वामी
ॐ पूर्णमद पूर्णमिदं पूर्णा पूर्णमुदच्यते
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते। ॐ शान्तिः शान्तिः शान्तिः। हरिः ओम्। श्रीगुरुभ्यो नमः। हरिः ओम्। धन्यवादः।
धन्यवादः महोदय। धन्यवादः। नमस्कारः।
धन्यवादः।
धन्यवादः महोदय।